अथ नीतिशतकम्। दिक्कालाद्यनवच्छिन्ना अनन्तचिन्मात्रमूर्तये स्वानुभूत्येकमानाय नमः शान्ताय तेजसे। बोद्धारो मत्सरग्रस्ताः प्रभवः स्मयदूषिताः अबोधोपहताश्चान्ये जीर्णमङ्गे सुभाषितम्। वरं पर्वतदुर्गेषु भ्रान्तं वनचरैः सह न मूर्खजनसम्पर्कः सुरेन्द्रभवनेष्वपि। जयन्ति ते सुकृतिनः रससिद्धाः कवीश्वराः। नास्ति येषां यशः काये जरामरणजं भयम्। स्वायत्तमेकान्तगुणं विधात्रा विनिर्मितं छादनमज्ञतायाः। विशेषतः सर्वविदां समाजे विभूषणं मौनमपण्डितानाम्। साहित्यसङ्गीतकलाविहीनः साक्षात् पशुः पुच्छविषाणहीनः। तृणं न खादन्नपि जीवमानः तद्भागधेयं परमं पशूनाम्। येषां न विद्या न तपो न दानं ज्ञानं न शीलं न गुणो न धर्मः ते मर्त्यलोके भुवि भारभूताः। मनुष्यरूपेण मृगाश्च चरन्ति। अधिगतपरमार्थान् पण्डितान् मावमंस्थाः। तृणमिव लघुलक्ष्मीः नैव तान् संवृणद्धि। अभिनवमदलेखाश्यामगण्डस्थलानां न भवति बिसतन्तुर्वारणं वारणानाम्। अम्भोजिनीव न विहारविलासमेव हंसस्य हन्ति नितरां कुपितो विधाता नत्वस्य दुग्धजलभेदविधौ प्रसिद्धां वैदग्ध्यकीर्तिमपहर्तुमसौ समर्थः इति श्रीभर्तृहरेः नीतिशतकोद्धृतश्लोकाः।